सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो हृत्वात्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदम् सर्वम् यद्भूतम् यच्च भव्यम् पुरामृतत्वस्येषा नो यदन्नेनातिरोहति एतावानस्य महिमातोऽध्यायांश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यावृतम् दिवि त्रिपादोद्भवदैत्पुरुषः पादोऽस्येहभवत्पुनः ततो विश्वम् व्याक्रामत्साधनानशने अधि तस्माद्विराजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमसो पुरः यत्पुरुषेण हविषा देवानिज्ञमतम् पत वसन्तो अस्यासीदाज्ञम् रेष्मयुद्धः शरद्धभिः संयज्ञम् बलिषि प्रोक्षम् पुरुषम् जातमग्रतः तेन देवा यजन्तसाध्यारिजायश्चये तस्माज्ञात् सर्वभुतः सम्भृतम् बृषदाज्यम् पशून्तांश्चक्रे वायव्याः नारण्यान् ग्राम्याश्चये तस्माद्यज्ञात् सर्वभुतरजस्वामाः निजग्निरे छन्दाहम् निजग्निरे तस्माद्यजस्तस्माः दजायत तस्मादश्वाः अजायन्त एकेचो भजाददः गावो भजग्निरे तस्मात्तस्माः जाताः जावजाः यत्पुरुषम् गजधुःखदिशाम् जकल्पयन् मुखम् किमस्य कौ बाहू गावोरूपादाः उच्येते ब्राह्मणास्य मुखमासीत् बाहूराः जन्यः कृतः ऊरोदरस्य यद्वैश्यः पद्भ्याम् शूद्रो अजायत चन्द्रमामनसो जातश्चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णाद्यौ समावर्तत पद्भ्याम् भूमिर्दिशस्रोत्रात्तथा लोकाङ्गकल्पयन् सप्तास्यासन्वरिहत्रे सप्त सविधः कृताः देवायद्यज्ञन्तम् बाणामवध्नम् पुरुषम् पशुम् यज्ञेन यज्ञमायजन्त देवास्तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानस्य जन्तयत्र पूर्वे साध्याः सन्ति देवाः